ಪಮಶ್ಯವಸ್ತಮಂ ಜ್ಯೇಷ್ಠರಾಜಂ ಬ್ರಹ್ಮಣಾಂ ಬ್ರಹ್ಮಣಸ್ಪತ ಆನಶ್ರಣ್ಮಂಡೋತಿಭಿಸ್ತಿ ದಸಾದನಂ ಪ್ರಣೋ ದೇವಿ ಸರಸ್ವತಿ ವಾಜೇಭಿರ್ವಾಜಿನೀವತಿ ಧೀನಾಮವಿತ್ರಯವತು ಗಣೇಶಾಯ ನಮಃ ಸರಸ್ವತ್ಯೈ ನಮಃ ಶ್ರೀಗುರುಭ್ಯೋ ನಮಃ ಹರಿಃ ಓಂ ಓಂ ನಮೋ ಭಗವತೇ ರುದ್ರಾಯ ಓಂ ನಮಸ್ತೆ ರುದ್ರಮಣ್ಯವಹುತೋತಯಿಷವೇ ನಮಃ ನಮಸ್ತೆ ಅಸ್ತು ಧನ್ವನೆ ಬಾಹುಭ್ಯಾಮುತತೆ ನಮಃ ಯಾತಯಿಷು ಶಿವತಮಃ ಶಿವಂ ಬಭೂವತೆ ಧನುಃ ಶಿವಾಶರವ್ಯಾಯ ತವತಯಾಣು ರುದ್ರಮೃಡಯ ಯಾರೇ ರುದ್ರ ಶಿವ ತನೂರ ಘೋರ ಪಾಪಕಾಶಿಣಿ ತಯಾರಸ್ತನುವಾಶಂತಮಯ ಗಿರಿಶಂತಾಭಿಜಾಕಶೇ ಯಾಮಿ ಶೃಂಗಿರಿಶಂತಹಸ್ತೆ ಬಿಭರ್ಷ್ಯಸ್ತವೇ ಶಿವಾಂಗಿರಿತ್ರತಾಂ ಕುರು ಮಾಹಿ ಗುಂಸಿ ಪುರುಷಂ ಜಗತ್ ಶಿವೇನ ವಚಸಾ ತ್ವಾ ಗಿರಿಶಾಚ್ಚಾವದಾಮಸಿ ಯಥಾ ನಃ ಸರ್ವಮಿದ್ ಜಗತ ಯಕ್ಷ್ಮಗುಂ ಸುಮನಾ ಅಸತ್ ಅಧ್ಯವೋಚತಧಿವಕ್ತ ಪ್ರಥಮೋ ದೈವ್ಯೋಭಿಷಕ್ ಅಹಿ ಗೃಸ್ಸ ಸರ್ವಾ ಜಂಭಯನ್ ಸರ್ವಾಶ್ಚಯಾತು ಧಾನ್ಯಃ ಅಸೌ ಯಸ್ತಾಮ್ರೋ ಅರುಣ ಉತ ಬಭ್ರುಸು ಮಂಗಳಃ ಯೇ ಚೇಮಾಗುಂ ರುದ್ರ ಅಭಿತೋ ದಿಕ್ಷಶ್ರುತ ಸಹಸ್ರಶೋ ವೈಶಾಗುಂ ಹೇಡೈಮಹೇ ಅಶವ್ಯೋ ವಸರ್ಪತಿ ನೀಲಗ್ರೀವ ವಿಲೋಹಿತಃ ಉತೈನಂ ಗೋಪಾ ಅದೃಶನ್ನ ದೃಶನ್ನುದಹಾರ್ಯಃ ಉತೈನಂ ವಿಶ್ವಭೂತಾನಿ ಸದೃಷ್ಟೋ ಮೃಡಯಾತಿನಃ ನಮೋ ಅಸ್ತು ನೀಲಗ್ರೀವಾಯ ಸಹಸ್ರಾಕ್ಷಾಯ ಮೇಡುಷೇ ಅತೋ ಯೇ ಅಸ್ಯ ಸತ್ವಾನೋ ಹಂತೇಭ್ಯೋಕರನ್ ನಮಃ ಪ್ರಮುಂಚ ಧನ್ವನಸ್ತ್ವಮುಭಯೋ ಪ್ರಾತಿಯೋಜ್ಯಾಂ ಯಾಶ್ಯತೆ ಹಸ್ತೈಷವಃ ಪರಾತ ಭಗವೋ ವಪ ಅವತತ್ಯ ಧನುಸ್ತ್ವಗುಂ ಸಹಸ್ರಾಕ್ಷಶತೇಷು ದೇ ನಿಷೇರ್ಯ ಶಲ್ಯಾಣ ಮುಖಾ ಶಿವೋ ನಃ ಸುಮನಃ ಭವ ವಿಜ್ಯಂಧನು ಕಪರ್ದಿನೋ ವಿಶಲ್ಯೋ ಬಾಣವಾಗುಂ ಉತ ಹರೇಶನ್ನಶೇಷವ ಆಭುರಸ್ಯ ನಿಷಂಗತಿಃ ಯಾತೇಷ್ಟಮಹಸ್ತೆ ಬಭೂವತಿ ಧನುಃ ತಯಾಸ್ಮಾನ್ ವಿಶ್ವತಸ್ತ್ವಮಯಕ್ಷ್ಮಯ ಪರಿಭುಜ नमस्ते अश्वायुधाय तथाय धृष्णवे उभाभ्यामुदते नमो बाहुभ्यां तव धन्वने परिते धन्वनो हेथिरस्मात् वृणक्तु विश्वतः अथो यविशुधिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिव य श्रीमन्महादेवाय नमः नमो हिरण्यबाहवे सेनान्ये दिशाक्षपतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः सस्पिञ्जराय कृषीमते पथीनां पतये नमो नमो बभ्रुषाय व्याधिनेन्द्रानां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो भवस्य हेत्य जगतां पतये नमो नमो रुद्राय तधाविने क्षेत्राणां पतये नमो नमः सूताय हन्त्याय वनानां पतये नमो नमो रायितायस्थपतये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणिदाय कक्षाणां पतये नमो नमो भुवन्तये वारिवस्कृताय औषधीनां पतये नमो नमः उच्चैर्घोषाय क्रन्दयते पक्षीनां पतये नमो नमः कृत्स्नवीताय धावते सत्त्वनां पतये नमः नमः सहमानाय निव्याधिनाव्याधिनीनां पतये नमो नमः ककुभायणि सङ्गिणे एसेनानां पतये नमो नमो निशङ्के एषु धीमते सत्कराणां पतये नमो नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो निचेरवे परिचराय रण्यानां पतये नमो नमः श्रिकाव्यभ्यो जिगागुंसद्भ्यो मुष्णतां पतये नमो नमो सिमद्भ्यो नक्तंसरद्भ्यः प्रकृन्ताणां पतये नमो नमः वृष्णीशिने गिरिचराय कुलुञ्चानां पतये नमो नमः यिषुवद्भ्यो धन्वावेभ्यश्च वो नमो नमः आतन्वानेभ्यः प्रतितधानेभ्यश्च वो नमो नमः आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यद्भ्यस्तवो नमो नमः आसीने भ्यस्य याणे Vyastavo namo namah svapadbhyo jagradbhyastavo namo namaste sadbhyo dhavadbhyastavo namo namah sabhabhyasabhapatibhyastavo namo namo ashvebhyo svapadibhyastavo namah Namah vyadhinibhyo vividyanti vyashtavo namo namah ugana vyastrigumbhati vyashtavo namo namo gritsebhyo gritsapate vyashtavo namo namo vrateebhyo Vratapatibhyashtavo namo namo ganebhyo ganapatibhyashtavo namo namo virupebhyo vishvarupebhyashtavo namo namo mahabhyah kshullakebhyashtavo namo namo Rathebhyo Rathebhyashtavo namo namo Rathebhyo Ratapatibhyashtavo namo namasenabhyasenanibhyashtavo namo namah kshatrubhyasangrahetrubhyashtavo namo namastakshatbhyo ratakare Vyashtavo namo namah kulale vyah karmare Vyashtavo namo namah punjushte vyonishade Vyashtavo namo namah yeshokrit vyadhanvakrit Vyashtavo namo namah Mrigayobhyashvanibhyashtavo namo namashvabhyashvapatibhyashtavo namah Namo bhavaya cha rudraya cha namah sarvaya cha pashupataye cha namo nilagrivaya cha shitikanthaya cha namah kaparji Chavyuktakeshaya cha namah sahasraya cha chadhanvane cha namo girishaya cha dhipivishaya cha namo merushtamaya cha sumate cha namo rasvaya cha vamanaya cha namo Brahate cha varshiyate cha namo Vridhaya cha samridhvane cha namo Agriyaya cha prathamaya cha namo Ashave cha jiraya cha namo Shigriyaya cha shibhyaya cha namo Urmyaya cha vashvanyaya cha namah Shrotasyaya cha dvipyaya cha Namo jyeshthaya cha kanishthaya cha namah Purvajaya cha parajaya cha namo Madhyamaya cha pagalbhaya cha namo Jaganyaya cha budhriyaya cha namo Sobhyaya cha pratisaryaya cha namo Yamyaya cha kshepyaya cha namo Urvaryaya cha khalyaya cha namo Shlokyaya cha vasanyaya cha namo Vanyaya cha kakshaya cha namo Shravaya cha pratishravaya cha namo Ashushinaya cha shurathaya cha namo Shuraya cha vabhindate cha namo Varmine cha varuthine cha namo Bilmine cha kavachine cha namo Shrutaya cha shrutasenaya cha namo dandabhyaya cha ananyaya cha namo drishnave cha pramrsha ya cha namo dhotaya cha prahita ya cha namo nisangine che shudhimate cha namastikshne cha veta yudhine cha namasva yudhaya cha sudhanvane cha namashrutyaya cha patyaya cha namah kaatyaya cha nepyaya cha namasodhyaya cha dharasyaya cha namonadhyaya cha vaishanthaya cha namah kopyaya cha vatyaya cha namo varshyaya cha varshyaya cha namo meghyaya cha vidyudhyaya cha namah Kedriyaya cha tapyaya cha namo vatyaya cha reshmiyaya cha namo vastavyaya cha vastupaya cha Om Hara 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 Om Rudraya cha namastamraya cha runa ya cha namashanghaya cha pashupataye cha namavugraya cha bhimaya cha namo agre vadhaya cha dure vadhaya cha namo hantre cha haniyade cha namo vrikshebhyo harikeshebhyo namastaraya namashambhave samayo bhave cha namashankaraya cha mayaskara ya cha namashivaya cha jivataraya cha namaste tyaya cha kolyaya cha namah Paryaya cha varyaya cha namah prataranaya chotaranaya cha namah ataryaya cha ladhyaya cha namah shashtyaya cha bhenyaya cha namah setadhyaya cha pravahyaya cha namah irinyaya cha prapadhyaya cha namah kegumshilaya cha kshayanaya cha namah kapardile cha pulastaye cha namah goshyaya cha grihyaya cha namah sthalpyaya cha gehyaya cha namah ka Tyaya cha gahvareshtaya cha namo ohridayaya cha niveshpyaya cha namo pagumsavyaya cha rajasyaya cha namo shushkyaya cha harityaya cha namo lopyaya cha lapyaya cha namo Urmyaya cha surmyaya cha namah parnyaya cha parnasadhyaya cha namo paguramanaya cha bhinnate cha namah akhidate cha prakhidate cha namo vakirikebhyo devanagum hridayebhyo namo vrikshinakebhyo namo vichinvakebhyo nama anirhatebhyo nama ami vatkebhyah drape andhasaspate daridranilalohita Yesham purushanam, yesham pashunam, mabhir maromo, yesham kinshanam amat. Yate rudra shiva tano shiva vishva abheshaji. रुद्रस्य भेषजीतयानो मृणजीवसे इमागुं रुद्राय तवसे कपर्धिरे क्षयद्वीराय प्रभरा महे मतिम् यथा नश्यमसद्विपदे चतुष्पदे विश्वम् पुष्टङ्ग्रामे अस्मिन्ननातुरम् मृणाणो रुद्रोतनो मयस्कृधे क्षयद्वीराय नमसा विधेमते यश्चन्द्रयोश्चमनुराय जे पिता तदश्याम तव रुद्र प्रणीतौ माणो महान्तमुतमाणो अर्भकम् माणवुक्षितम् माणो वले पितर मातमातरम् प्रियाम तनुवो रुद्ररेतः मानस्तोके तनयमानयोषिमानो घोषमानो अश्वेषुरीरिषः वीरान्मानो रुद्रभामितो वदेर्हविष्मन्तो नमसा विधेमते आराते गोघ्नभूत पुरुषघ्ने क्षयद्वीराय सुम्नमस्मेते अस्तु रक्षाचणो अभि च देव ब्रूह्यधाचन शर्म यच्छद्विभर्हा स्तुहि श्रुतम् गर्दश दंयुवान मृगन्न भीममुपहत्नुमुग्रम् मृळा चरिद्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव बन्तु सेना परिणो रुद्रस्य हेतर्वृणक्तु परिद्वेषस्य दुर्मदिरगायो अवस्थिरा मघवद्भ्यस्तनुष्वमीध्वस्तोकायतनयाय मृडय मीडुष्व शिवतम शिवो नः सुमना भव परमे वृक्ष आयुधन्निधाय कृत्रिम्बसान आतरभिनाकं विभ्रता गृही विकिरितविलोहितनमस्ते अस्तु भगवः यास्ते सहस्रगुम्भेतयोन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रधा बाहुस्तव हेतयः मीषाणो भगवः पराचीनामुखाकृधि सहस्र सहस्रजो ये रुद्राधिभूम्या तेषा गुंसहस्रयो जले वधन्वाणि तन्मसे अस्मिन् महत्यर्णवेऽन्तरिक्षे भव अधि नीलग्रीवाशितिकण्ठा शर्वा अधः क्षमाचराः नीलग्रीवाशितिकण्ठ दिवगुं रुद्र उपश्रुताः ये वृक्षेषु तस्मिञ्जर नीलग्रेव विलोभिताः ये भूतानामधिपतयो विशिकासः कपर्दिनः ये अन्येषु विविध्यन्ति पात्रेषु पिभतो जनान् ये पथाम् पथि रक्षय ऐलभृधाय व्युदः ये दीर्घाणि प्रचरन्ति श्रकावन्तो निषङ्गिनः येतावन्तश्च भूयागुंसश्च दिशो रुद्राविदस्थिरे तेजागुन सहस्रयो जने वधन्वाणि धन्मसे नमो रुद्रेभ्यो ये पृथिव्या ये अन्तरिक्षे ये
देवी ये
शामन्नवातो वर्षमिषपस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतिचेर्दशोतिचेर्दशोर्ध्वस्तेभ्यो
नमस्ते नो मृळयन्तु ते
द्विष्मो यश्च नो द्वेष्टितं वोदं भेदधामि त्रयम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् उर्वारुकमिभव मृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नव्यो आप्सु यवोषधीषु यो रुद्रो विश्वा भुवन विवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्योर्मत्याय हन्तवे तान्यज्ञस्य मायया सर्वाणवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानां ग्रन्थिरसि रुद्रो मा विषान्तकः तेनाभ्यायस्व नमो रुद्राय विष्णवे मृत्योर्मे पाहि समुष्टु हि अश्विषु सुधन्वायो विश्वस्य क्षयति भेषतस्य यक्ष्वा महेशौ मनसाय रुद्रं नमो भिर्देवमसुरन्तु वस्य अयं मे हस्तो भगवान् अयं मे भगवत्तरः अयम् मे विश्वभेषजो यगुं शिवाभिमर्जनः ॐ शान्ति शान्ति शान्तिः शं च मे मयश्च मे प्रियं च मे नो कामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेयश्च मे धृतिश्च मे विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च मे सूश्च मे प्रसूश्च मे शीलं च मे लयश्च मर्दं च मे मृतं च मे यक्ष्मं च मे नामयश्च मे जीवातुश्च मे दीर्घायुध्वं च मे न मित्रं च मे भयं च मे सुगं च मे शयनं च मे सुषा च मे सुदिनं च मे ॐ शान्ति शान्ति शान्तिः तच्छयो रामिणीमहे गातुं यज्ञाय गातुं यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वञ्जिगातु भेषजम् षण्णो अस्तु द्विपदे षं चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशे सपुरुषः सहस्राक्ष सहस्रपात् स भूमिम् विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् उदामृतत्वस्येषाणः यदन्येनातिरोहति एतावानस्य महिमा अथोज्यायाग्रश्च पुरुषः पादोऽस्य विश्वभूतानि त्रिपादस्यामृतम् दिवे त्रिपादोऽध्वौ दैत्पुरुषः पादोऽस्येह भवात् पुनः ततो विश्वम् व्यग्रामत् शासनानशने अभि तस्मात् विराट जायत विराजो अधिपुरुषः स जातो अत्यविश्यत पश्चात् भूमिमथो पुरः यत्पुरुषेण हविषा देवायज्ञमतन्वत वसन्तो अस्यासीदाज्यम् ग्रीष्म युध्म शरद्धविः सप्तास्यासन् परिधयः त्रिसप्तसमिदम् कृताः देवायद्यज्ञन्तन्वानाः अबध्नन् पुरुषम् पशुम् तम् यज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्या ऋषयश्च ये तस्माद्यज्ञात् सर्वहुतः सम्भृतम् पृषदाज्यम् पशुभृस्तागृश्चक्रेवायव्यान् आरण्यान् ग्राम्याश्च ये तस्माद्यज्ञात् सर्वहुतः ऋचः सामानि जग्निरे छन्दागुंसि जग्निरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त ये केचोभयादतः गावो हजग्निरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषव्यदधुः कतिदाव्यकल्पयन् मुखम् किमस्य कौ बाहु पावूरुपादावुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहुराजन्यहृतः ऊरु तदस्य यद्वैष्यः पद्भ्यागुम् शूद्रो अजायत चन्द्रमाबणसो जातः चक्षो सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शेष्णौ ध्यौ समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम्
आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य भेलः नामानि कृत्वा भिवधन्यदास्ते
धाता पुरस्ताद्यमुत जहार
शक्र प्रविद्वान् प्रतिशश्च तस्रः
तमेवम्
विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सचन्ते यत्र पूर्वे साध्या सन्ति देवाः अभ्यः सम्भूता पृथिव्यैरसाश्च विश्वकर्मणः समवर्तताधि तस्य त्वष्टा विदद्रूपमेते तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते यनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते
तस्य धीराः परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेदशः
यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो ऋचाय ब्राह्मये ऋचम् रामम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात्
तस्य देवा अशन्वजे
ह्रेश्च ते लक्ष्मीश्च पत्न्यौः अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्याप्तम् इष्टम् मनिषाण अमुम् मनिषाण सर्वम् मनिषाण तच्चय्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वञ्जिगातु भेषजम् शण्णो अस्तु द्विपदे सञ्चतुष्पदे
ॐ शान्ति शान्ति शान्तिः सहस्रशीर्षम् देव विश्वाक्ष विश्वशम्भुवम् विश्वम् नारायणम् देवमक्षरम् परमम् पदम् विश्वतः परमान्नित्यम् विश्वम् नारायणगुम्भरिम् विश्वमेवेदम् पुरुषस्तद्विश्वमुपजीवति पतिम् विश्वस्यात्मेश्वरगुम् शाश्वतगुम् शिवमच्युतम् नारायणम् महाज्ञेयम् विश्वात्मानम् परायणम्
नारायण परो ज्योतिरात्मा नारायण परः नारायण परम ब्रह्म तत्त्वं नारायण परः नारायण परो ध्याता ध्यानं नारायण परः यच्च किञ्चित् जगत् सर्वं दृश्यते श्रूयतेऽपि वा अन्तर्बहिस्ततः सर्वं व्याप्य नारायणस्थितः अनन्तमव्ययं कविगुं समुद्रेऽन्तं विश्वशम्भुवम् पद्मघोषः प्रतिकाशगुं हृदयं चाप्यधोमुखम् अधोनिष्यामि तस्यान्ते नाभ्यामुपरि तिष्ठति ज्वालमालाकुलं भाति विश्वस्यायतनं महत् सन्ततगुं शिलावे सुलं हत्याकोशसन्निभम् तस्यान्ते सुशिरगुं सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितम् तस्य मध्ये महानग्निर्विश्वचिर्विश्वतो मुखः सोग्रभुद्विभजन्तिष्टन्नारमजरः कविः तिर्यगोध्वमरसायि रश्मयस्तस्य सन्तता सन्तापयति स्वं देहमाप सतलमस्तकः तस्य मध्ये वह्निशिखा अणीयोध्वा व्यवस्थितः नीलतो यतमध्यस्था विद्युल्लेकेव भास्वरा नीवारशोकवत्तन्वी पीता स्वत्यनुपमा तस्या शिखाया मध्ये परमा आत्मा व्यवस्थितः स ब्रह्म सदिव स हरिश्चेन्द्र सोऽक्षरः परमस्वराट् ऋतगुं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नमः नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् विष्णोर्नुकं वीर्यानि प्रवोचं यः पार्थिवानि विममे रजागुंसि यो अस्कभायदुत्तरगुं सदस्तं विचक्रमाणस्त्रे दुर्गायो विष्णोरराटमसि विष्णो ओः पृष्ठमसि विष्णो ष्णत्रे स्तो विष्णो स्योरसि विष्णो ध्रुवमसि वैष्णवमसि विष्णवे त्वा ॐ भवतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः पुरुषो ह वै नारायण कामयत प्रजा श्रीयेति नारायणात् प्राणो जायते मनः सर्वेन्द्रियाणि च खं वा
स्वस्य धारिणे नारायणात् ब्रह्म जायते नारायणात् रुद्रो जायते नारायणात् इन्द्रो जायते नारायणात् प्रजापतयः प्रजायन्ते
विष्णुरेव भवति ओमित्यग्रे व्याहरेत् रमयति पश्चात् नारायणायेत्युपरिष्टात् ओमित्येकाक्षरम् नमयति द्वे अक्षरे नारायणायेति पञ्चा नारायणस्याष्टाक्षरम् पदमध्येते अनपब्रुवत् सर्वमायुरेति विन्दते प्राजापत्यगुम् रायस्पोष कौपत्यम् सोमृतत्वमश्नुते ततोमृतत्वमश्नुत इति एवम् वेद प्रत्यगानन्दम् ब्रह्मपुरुषम् प्रणवस्वरूपम् अकार उकारमकार इति काले कथा समभरत्तदेतदोमिति यमुक्त्वा मुच्यते योगे जन्म संसारबन्धनात् मन्त्रोपासकः वैकुण्ठभुवनलोकङ्गमिष्यते तदिदम् परम् पुण्डरेकम् विद्यानगणम् तस्मादिदावन्मात्रम् ब्रह्मण्यो देवके पुत्रो ब्रह्मण्यो मधुसूदनो सर्वभूतस्तमेकम् नारायणम् कारणरूपमकारपरब्रह्मो येन सर्वगिरोयोधीते प्रातरदेयानु रात्रिकृतम् पापम् नाशय
प्रदातन्तु मा व्यवच्छेत्सि सत्यान्न प्रमदितव्यम् सर्वान्न प्रमदितव्यम् कुशलान्न प्रमदितव्यम् भूत्यैण प्रमदितव्यम् स्वाध्याय प्रवचनभ्यान्न प्रमदितव्यम् कार्याभ्यान्न प्रमदितव्यम् मातृदेवो भव पितृदेवो भव आचार्यदेवो भव अतिथिदेवो भव यान्यणवस्यानि कर्माणि तानि सेवितव्यानि ोहितराजि यान्यस्मागु सुदरितानि ताणि त्वयोपास्यानि लोहितराणि ये चास्मच्छ्रेयागुंसु ब्राह्मणाः तेषां त्वया समेन प्राश्वसितव्यम् श्रद्धायाेयम् अश्रद्धयाेयम् ह्रियादेयम् आचार्यविदे कर्म तत्रवर्तेताः अदाभ्या आज्ञातेषु ये तत्र ब्राह्मणाः सम्मर्जिनः युक्ताः युक्ताः अलोक्षा धर्मकामाश्युः यथा ते तेषु वर्तेरण्ड तथा तेषु वर्त ेशः येषामेषत् एतदनुशासनम् एवमुपासितव्यम् एवमुचैतदुपास्यम् पुष्पवान् प्रजावान् पशुमा भवति य एवं वेद यो वा मायतनं वेद आयतनवान् भवति अग्निर्वा अपामायतनम् आयतनवान् भवति यो आयतनं वेद आयतनवान् भवति आपो वा अग्नेरायतनौ आयतनवान् भवति य एवं वेद योगामायतनं वेद आयतनवान् भवति वायुर्वापायतनं आयतनवान् भवति यो वायोरायतनं वेद
आयतनम्
आयतनवान् भवति यो मुष्यतपत आयतनम् वेद आयतनवान् भवति आपो वा अमुष्यतपत आयतनम् आयतनवान् भवति य एवं वेद योपामायतनम् वेद आयतनवान् भवति चन्द्रमा वा अपामायतनम् आयतनवान् भवति यश्चन्द्रमस आयतनम् वेद आयतनवान् भवति आपो वै चन्द्रमस आयतनम् आयतनवान् भवति य एवं वेद योपामायतनम् वेद आयतनवान् भवति नक्षत्राणि वा अपामायतनम् आयतनवान् भवति यो नक्षत्राणामायतनम् वेद आयतनवान् भवति आपो वै नक्षत्राणामायतनम् आयतनवान् भवति य एवं वेद योपामायतनम् वेद आयतनवान् भवति पर्जन्यो वा अपामायतनम् आयतनवान् भवति यः पर्जन्यस्यायतनम् वेद आयतनवान् भवति आपो वै पर्जन्यस्यायतनम् आयतनवान् भवति य एवं वेद योपामायतनम् वेद आयतनवान् भवति संवत्सरो वा अपामायतनम् आयतनवान् भवति यस्संवत्सरस्यायतनम् वेद आयतनवान् भवति आपो वै संवत्सरस्यायतनम् आयतनवान् भवति य एवं वेद यो सुनावम् प्रतिष्ठिताम् वेद प्रत्येव तिष्ठति ॐ शान्ति शान्ति शान्तिः स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महिमहिषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ